एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। गतदिने अतिरिक्तेषु अष्टषष्ट्याम् जनेषु कोरोना विषाणोः पुष्ट्या सह नेपाले समग्रतः संक्रान्तानाम् जनानाम् संख्या चतुरशीत्यधिक पञ्चशतम् प्राप्ता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय नियमिते संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता डाक्टर विकास देवकोटा पश्चात्तन समये बाँके जनपदस्य सप्तविंशत्याम्, बैतडी जनपदस्य चतुर्षु, सुर्खेत जनपदस्य त्रिषु, झापा बर्दिया जनपदयोः प्रतिजनपदम् एकस्मिन् च जनेषु संक्रमणम् पुष्टिभूतमिति अज्ञापयत्। तत्पूर्वम् गतदिने प्रातरेव सर्लाही जनपदस्य त्रयोदश, कपिलवस्तुनः अष्टौ, रूपन्देही जनपदस्य अष्टौ, काष्ठमण्डप बाह्र, चितवन जनपदानाम् एकैकम् चेति कृत्वा द्वात्रिंशति जनेषु कोरोना संक्रमणम् पुष्टिभूतमासीत्। नेपाले अधुनावधि चत्वारिंशतो जनपदानाम् पञ्चाधिक पञ्चशते पुरूषेषु, उनशीत्या महिलासु च संक्रमणम् पुष्टिभूतमस्ति। कोरोना संक्रमणस्य कारणेन अधुनावधि नेपाले त्रयो जनाः मृताः सन्ति। उनाशीतिर्जना उपचारस्य पश्चात् स्वास्थ्यलाभम् प्राप्य गृहम् प्रत्यावृताः वर्तन्ते। अधुनावधि नेपाले समग्रतः चत्वारिंशतः सहस्राणाम् नवशतस्य उनषष्ट्याश्च जनानाम् पीसीआर नाम्ना बहुलक श्रृंखला प्रतिक्रियाविधिना षडशीतेः सहस्राणाम् शतद्वयस्य पञ्चत्रिंशतश्च जनानाम् आरडीटी नाम्ना द्रुतनिदानविधिना च परीक्षणम् सम्पन्नम् वर्तते। वीरगंज स्थानस्य नारायणी चिकित्सालये उपचाररताः कोरोना संक्रान्ताः नवजनाः गतदिने स्वास्थ्यलाभम् प्राप्य गृहम् प्रत्यावृताः वर्तन्ते। कोरोनामुक्ताः पर्सा जनपदस्य चत्वारः, बारा जनपदस्य द्वौ, रौतहट जनपदस्य त्रयश्चेति जनाः गतदिने चिकित्सालयात् प्रस्थापिताः इति नारायणी चिकित्सालयस्य कोरोना विभागस्य प्रमुख डाक्टर उदयनारायण सिंह अबोधयत्। बारद्वयम् कोरोना परीक्षणे संक्रमणस्य अभाव दर्शनेन चिकित्सालयात् एते प्रस्थापिताः इति डाक्टर सिंह अज्ञापयत्। बुटवल वर्तिनी कोरोना विशेष चिकित्सालये उपचाररताः कोरोना संक्रान्ताः दशजनाः स्वास्थ्यलाभम् प्राप्य यो गृहम् प्रत्यावृत्ताः सन्ति। सप्ताहद्वय पूर्वम् कोरोना संक्रान्ताः भूत्वा चिकित्सालयस्य एकान्तवासे प्रविष्टाः कपिलवस्तुनो युवानः स्वास्थ्यलाभम् प्राप्य गृहम् प्रत्यावृताः सन्तीति बुटवल सूत्रोत्पादन शालास्थितस्य कोरोना विशेष चिकित्सालयस्य मुख्य व्यक्तिः वरिष्ठ परामर्श दात्री चिकित्सकश्च डाक्टर सुदर्शन थापा अज्ञापयत्। असौ तेषु आत्मबलस्य प्राबल्येन उपचारे सहज सम्भूतः इत्यभासत। प्राप्त स्वास्थ्यलाभाः व्यक्तयः षोडशतः चत्वारिंशत् वर्षसमूहस्य सन्ति। गुल्मी जनपदस्य मदाने ग्रामपालिकायाः षष्ठेवडा क्षेत्रे अतिरिक्ते एकस्मिन् जने कोरोना संक्रमणम् पुष्टिभूतम् वर्तते। गतदिने ते पीसीआर बहुलक श्रृंखला प्रतिक्रिया परीक्षणस्य विवरणे एकत्रिंशत् वर्षीय पुरूषे कोरोना विषाणोः लक्षणम् दृष्टमिति भैरवास्थितया प्रदेश जनस्वास्थ्य प्रयोगशालया पुष्टीकृतम् वर्तते। अवशिष्टस्य जनचतुष्टयस्य विवरणम् प्रतिकूल लक्षणात्मकम् प्राप्तम् वर्तते। कोरोना संक्रान्तस्य खोटाङ जनपदस्य युवकस्य परिवारजनैः त्रिचत्वारिंशतः जनानां पीसीआर नाम्ना बहुलक श्रृंखला प्रतिक्रियाविधेः परीक्षणे कोरोना संक्रमणम् दृष्टम् नास्ति। काष्ठमण्डपात् गत वैशाख मासस्य द्वादशे दिवसे उद्धृत्य खोटाङ जनपदम् प्रापिते हलिसी तुवाचुङ नगरपालिकायाः सप्तमवडा क्षेत्रस्य महादेवस्थान निवासिनी विंशति वर्षीय युवके कोरोना संक्रमणस्य पुष्टेः अनन्तरम् तस्य अष्टानाम् परिवारजनानाम् सहैव निवासिनः, स्वास्थ्यकर्मिणः, सुरक्षाकर्मिणाञ्च निदर्शनम् संकलय्य विराटनगरे परीक्षणे विहिते कोरोना संक्रमणाभावः दृष्टोस्तीति हलेसी तुवाचुङ नगर प्रमुख इवन राई अज्ञापयत्। झापा जनपदस्य भद्रपुर नगरपालिकाया अन्य क्षेत्रात् नगरपालिकायाः अभ्यन्तरे गमनागमने कठोरताम् अवलम्बितुम् प्रारब्धमस्ति। नगर विपद व्यवस्थापन समितेः गत शुक्रवासरे उपविष्टेन उपवेशेन सीमाक्षेत्रम् आवश्यकतायाः अनुसारेण पिधाय गमनागमनम् नियन्त्रयितुम् निर्णीतम् आसीत् इति भद्रपुर नगरपालिका प्रमुख जीवन कुमार श्रेष्ठ अज्ञापयत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सचिवालय उपवेशन संविधान संशोधनस्य मिलेनियम च्यालेञ्ज कर्पोरेशन इति परियोजनायाश्च विषय विमृष्टम् वर्तते। प्रधानमन्त्री निवासे बालवाटार स्थाने उपविष्टे ह्यस्तन उपवेशे संविधान संशोधनस्य गृहकार्ये सम्प्रत्येव अद्यावधि कृतस्य राजनीतिक मानचित्रस्य सार्वजनिकरणमनु दृष्टायः राजनीतिकावस्थायाः आगामिन आर्थिक वर्षस्य आयव्ययकस्य च विषयेषु विमृष्टमिति दलस्य प्रवक्ता नारायणकाजी श्रेष्ठः अज्ञापयत्। उपवेशे एमसीसी अध्ययन कार्यदलस्य पक्षतः स्थायी समितेः सदस्यः भीम रावलः, परराष्ट्रमन्त्री प्रदीप कुमार गेवाली च धारणाम् उपास्थापयताम् इति प्रवक्ता श्रेष्ठ अवोचत्। उपवेशे दलस्य अध्यक्ष प्रधानमन्त्री च केपी शर्मा ओली अनुपस्थितः आसीत्। राष्ट्रिय मुस्लिमायोगेन सर्वकारेण क्रियान्वितं परिपिधानं परिपाल्य ईदुल फित्र पर्वणः अवसरे गृहस्य अभ्यन्तरे एव नमाज पठनाय अनुरुद्धं वर्तते। आयोगस्य अध्यक्षः समीम मिया अन्सारी कोरोना विषाणोः संकटः वर्धमानोस्तीति हेतोः गृहे एव उषित्वा इद पर्वणः नमाज पाठं पठितुम् अन्वरुणत्। स्वास्थ्य जनसंख्या मन्त्रालये गतदिने आयोजिते नियमित पत्रकार सम्मेलने अध्यक्ष अन्सारी सामूहिक रूपेण नमाज पठनेन कोरोना संक्रमणस्य संकटः अधिको भवतीति कारणात् गृहे एव स्थातुम् अन्वरुणत्। नेपाल भारत सीमा प्रवेश बिन्दौ वैतडी जनपदस्य झुलाघाट स्थाने प्रथमवारं सशस्त्र प्रहरीण सीमा निरीक्षण प्रहरी केन्द्रं स्थापितमस्ति। सुदूर पश्चिम क्षेत्रस्य सशस्त्र प्रहरी नायब महानिरीक्षक हरिशंकर बुढाथोकी केन्द्रम् एतत् उद्घाटयन् अनेन सीमा निरीक्षणं भवतीति अगदत्। एतेन कार्यालयेन सीमा निरीक्षणं राजस्व संकलने वृद्धि सर्वविधानां सीमापराध सम्बद्धानां क्रियाकलापानां च नियन्त्रणं च भविष्यतीति विश्वसितं वर्तते। पञ्चम प्रदेशे प्रदेश सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमः प्रस्तुताः सन्ति। प्रदेशसभाया ह्यस्तनोपवेशे प्रदेश प्रमुख धर्मनाथ यादवः आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमान् प्रस्तुवन् अवोचत् कोरोना संक्रमणस्य नियन्त्रणाय विशेष योजनाः सञ्चालयिष्यन्ते इति समाचारः।